ओम नमो भगवते वासुदेवाय। अथाष्टाविंशोऽध्यायः। श्री भगवानुवाच, योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे। मनो येनैव विधिना प्रसन्नं याति सत्पथं, स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनं, दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनं, ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा, मितमेध्यादनं शश्वत् विविक्तक्षेमसेवनम्, अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः, ब्रह्मचर्यं तपः शौचं, स्वाध्यायः पुरुषार्चनं, मौनं सदासनजयस्थैर्यं प्राणजयशनैः, प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि, स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणं, वैकुण्ठलीलाभिध्यानं समाधानं तथात्मनः, एतैरन्यैश्च पतिभिर्मनो दुष्टमसत्पथम्, बुद्ध्या युञ्जीतसनकैर्जितप्राणो यदन्द्रितः, शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम्, तस्मिन् स्वस्ति समासीन ऋजुकायः समभ्यसेत्, प्राणस्य शोधयेन्मार्गम् पूरकुम्भकरे च कैः, प्रतिकूलेन वाचित्तम् यथा स्थिरमचञ्चलम्, मनोचिरात् स्याद्विरजम् जितश्वासस्य योगिनः, वायवग्निभ्याम् यथा लोहम् धमातम् त्यजति वैमलम्, प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान्, प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान्, यदा मनस्वं विरजं योगेन सुसमाहितं, काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः, प्रसन्नवदनां भोजं पद्मगर्भारुणेक्षणं, नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम्, लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम्, श्रीवत्सवक्षसम्भ्राजत् कौसुभामुक्तकन्धरम्, मत्तद्विरेफकलया परीतं वनमालया, परार्ध्यहारवलय किरीटाङ्गदनूपुरम्, काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्, दर्शनीयतमं शान्तं मनोनयनवर्धनम्, अपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतं, सन्तं वयसि कैशोरे भृत्यानुग्रहकातरं, कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम्, ध्यायेद्देवं समग्राङ्गं यावन्नच्यवते मनः, स्थितं व्रजन्तमासीनं शयानं वा गुहाशयं, प्रेक्षणीये हितं ध्यायेच्छुद्धभावेन चेतसा, तस्मिल्लब्धपदं चित्तं सर्वावयवसंस्थितं, विलक्ष्यैकत्र संयुज्यादङ्गे भगवतो मुनिः, सञ्चिन्तयेद्भगवतश्चरणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्, उत्तुङ्गरक्तविलसन्नखचक्रवालज्योत्स्नाभिराहतमहद्हृदयान्धकारम्, यच्छौ च निःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्न्यधिकृतेन शिवः शिवोऽभूत्। ध्यातुर्मनः शमलशैलनिसृष्टवज्रम्, ध्यायेच्चिरम् भगवतश्चरणारविन्दम्, जानुद्वयम् जलजलोचनया जनन्या लक्ष्म्याखिलस्य सुरवन्दितया विधातुः, ऊर्वोर्निधाय करपल्लवरोचिषा यत् संलालितम् हृदि विभोरभवस्य कुर्यात्, ऊरुसुपर्णभुजयोरधिशोभमानावोजोनिधि अतसिका कुसुमावभासौ, व्यालम्बिपीतवरवाससि वर्तमान काञ्चीकलापपरिरम्भिनितम्बबिम्बम्, नाभिर्हृदम् भुवनकोशगुहोदरस्थम् यत्रात्मयोनिदिशिणाखिलोकपद्मम्, व्यूढं हरिन्मणिवृषस्तनयोरमुस्य, ध्यायेद्वयं विशदहारमयूखगौरम्, वक्षोधिवासमृषभस्य महाविभूते पुंसां मनोनयननिर्वृतिमादधानम्, कण्ठं च कौस्तुभमणेरधिभूषणार्थं कुर्यान्मनस्यखिलोकनमस्कृतस्य, बाहूंश्च मन्दरगिरे परिवर्तनेन निर्णिक्तबाहुवलयानधिलोकपालान्, सञ्चिन्तयेद्दशशतारमसह्यतेजः शङ्खम् च तत्करसरोरुहराजहंसम्, कौमोदकीम् भगवतो दयिताम् स्मरेत दिग्धामरातिभटशोणितकर्दमेन, मालाम् मधुव्रतवरूथगिरोपघुष्टाम् चैत्यस्य तत्त्वममलम् मणिमस्य कण्ठे, भृत्यानुकम्पितधियेह गृहीतमूर्तेः सञ्चिन्तयेद्भगवतो वदनारविन्दम्, यद्विस्फुरन्मकरकुण्डलवल्गितेन विद्योतितामलकपोलमुदारनासम्, यच्छ्रीनिकेतमलिभिः परिसेव्यमानम् भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम्, मीनद्वयाश्रयमधिक्षिपदब्जनेत्रम् ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु, तस्यावलोकमधिकम् कृपयाति घोरतापत्रयोपशमनाय निसृष्टमक्ष्णोः, स्निग्धस्मितानुगुणितं विपुलप्रसादं ध्यायेच्चिरं विपुलभावनया गुहायाम्, हासं हरेरवनताखिलोक तीव्र शोकाश्रु सागर विशोषण मत्युदारम् सम्मोहनाय रचितं निजमायास्य भ्रूमण्डलं मुनिकृते मकरध्वजस्य ध्यानायनं प्रहसितं बहुलाधरोष्ठ भासारुणायत तनुद्विज कुन्द पंक्ति ध्यायेत् स्वदेह कुहरे वसितस्य विष्णोर्भक्त्यार्द्रयार्पितमना न पृथक् दिदृक्षेत् एवं हरौ भगवति प्रतिलब्ध भावो भक्त्या द्रवद्रुदय उत्पुलकः प्रमोदात् औत्कण्ठ्य बाष्पकलया मुहुरर्द्यमानस्तच्चापि चित्तबलिशं सनकैर्वियुङ्क्ते मुक्ताश्रयं यर्हि निर्विषयं विरक्तं निर्वाणमृच्छति मनः सहसा यथार्चिः आत्मानमत्र पुरुषो व्यवधानमेकमन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः सोऽप्येतया चरमया मनसो निवृत्त्या तस्मिन्महिम्न्यवसितः सुखदुःखबाह्ये हेतुत्वमप्यसति कर्तरि दुःखयोर्यत् स्वात्मन्विधत्त उपलब्ध परात्मकाष्ठः देहं च तं न चरमः स्थितमुत्थितं वा सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् दैवादुपेतमथ दैववशादपेतं वासो यथा परिकृतं मदिरामदान्धः देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासुः तं सप्रपञ्चमधिरूढसमाधियोग स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः यथा पुत्राच्च वित्ताच्च पृथङ् मर्त्यः प्रतीयते अप्यात्मत्वेनाभिमता देहादेहे पुरुषस्तथा यथोल्मुकाद् विस्फुलिङ्गात् धूमाद्वापि स्वसम्भवात् अप्यात्मत्वेनाभिमतात् यथाग्निः पृथगुल्मुकात् भूतेन्द्रियान्तः करणात् प्रधानात् जीवसङ्गितात् आत्मा तथा पृथक् द्रष्टा भगवान् ब्रह्मसङ्गितः सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ईक्षेतानन्यभावेन भूतेष्विव तदात्मताम् स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते योनीनां गुणवैषम्या तथात्मा प्रकृतौ स्थितः तस्मादिमां स्वां प्रकृतिं दैवीं सदसदात्मिकां दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे कापिलेये साधनानुष्ठानम् नामाष्टाविंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।